एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली लोकतन्त्रम् संविधानम् च सबलम् विधातुम् नैरन्तर्येण प्रवर्त्यते इति प्रतिबद्धताम् व्यनक्ति। क्याप्टेन पदीयेन रामेश्वर थापा विधेयेन लिखितम् इन्टू द फायर इति नामकम् पुस्तकम् ह्य काष्ठमण्डप पे लोकार्पयन् प्रधानमन्त्री ओली लोकतान्त्रिक शासन प्रणाल्यम् अन्येषाम् अधिकारणाम् हननत्वेन कान्यपि कार्याणि विधातुम् न प्रदास्यन्ते इति समस्पष्टयत्। नेपाले अतपरम् कदापि हिंसात्मक गतिविधि भवितुम् न शक्नोति, तथाविध गतिविधयः विधातुम् न दीयन्ते इति च भाषमाणः प्रधानमन्त्री ओली लोकतन्त्रम् संविधानम् च सबलम् विधातुम् नैरन्तर्येण प्रवर्त्यते इति प्रतिबद्धताम् व्यक्तवान्। कार्यक्रमे नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा नेपाले शान्ति प्रक्रियायै राजनीतिक स्थिरतायै विकासाय च थापा विधेयेन जीवनमेव संकटे स्थापयित्वा महत्वपूर्ण प्रयासः विधीयमानोऽस्ति इति उक्त्वा प्राशंसत। कार्यक्रमे प्रधानमन्त्री ओली सभापतिः देउवा बालगुरुः आदित्यनाथश्च थापा विधस्य पुस्तकम् लोकार्पयन्। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः कथयति आयोजनाः सम्पादयितुम् जनस्तरादेव निरीक्षणम् विधातव्यम्। बुटवलस्थाने लुम्बिनी प्रदेशस्य गौरवस्य आयोजनायाः अन्तर्गतस्य लुम्बिनी प्रादेशिक चिकित्सालयस्य अत्याधुनिक भवनस्य शिलान्यासम् विदधानः अर्थमन्त्री पौडेलः विकासस्य कार्येष् सत्तापक्षेण प्रतिपक्षेण च मिलित्वा प्रवर्तनीयमिति प्रावोचत। अर्थमन्त्री पौडेलः विकास निर्माणस्य आयोजनाः समये एव सम्पादयितुम् निर्दिशन्, यथासमयम् कार्यम् सम्पाद्य धन्यवादाराः भवितुम् प्रदेश सर्वकारम् प्रदेश पूर्वाधार विकास प्राधिकरणम् निर्माण संस्थाम् च अन्वरुणत। अर्थमन्त्री पौडेलः भवनानाम् निर्माणमेव पर्याप्तम् न भवति इति चर्चयम्, तेषाम् प्रभावकारिणे व्यवस्थापनाय च प्रदेश सर्वकारेण ध्यानम् प्रदातव्यमिति अवोचत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषते अधिनियमानाम् विदेश च माध्यमेन संचार क्षेत्रम् अतिरिक्तम् व्यवस्थितम् विधातुम् सर्वकारः प्रवर्तितो वर्तते। प्रेस चौतारी नेपालस्य गण्डकी प्रदेश शाखया ह्य प्रोखरायाम् आयोजिते पत्रकार सम्मेलने संचार मन्त्री गुरूङ संचार क्षेत्रेण सह सम्बद्धाः प्रायः अधिनियमाः विधयश्च प्राचीनाः सन्तीति चर्चयन् एतान् विधिन् समय सापेक्षेण परिमार्ज्य आवश्यकतायाः आधारेण नूतन विधीनाम् निर्माणम् प्रति सर्वकारः अग्रे वर्धितोऽस्तीति असूचयत्। संचार क्षेत्र सम्बद्धः राष्ट्रिय समाचार समितिः रेडियो नेपालः नेपाल टेलिभिजन संस्थानम् गोर्खा पत्रम् चेति संस्थाः प्राचीन नाम अधिनियमानाम् विधिनाम् च अनुसारेणैव सञ्चल्यमानानि सन्ति, त्यतः एतेषाम् आवश्यकतायाः अनुसारेण संशोधनस्य विषये सर्वकार अग्रे वर्धितोऽस्तीति अज्ञापयत्। सामाजिक सञ्जालानाम् नियमेन सम्बद्धस्य विधेः सामाजिकापराधेन सम्बद्धस्य अधिनियमस्य च प्रारूपम् अन्तिमचरणे प्राप्तमस्ति इति ज्ञापयन् संचार मन्त्री गुरूङ सार्वजनिक प्रसारणाधिनियमः मीडिया काउन्सिल विधेयकञ्च विमर्शनस्य क्रमे स्तः इति असूचयत्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई निगदति संघीय सर्वकारः पुस्तकालयानाम् विकासाय प्रवर्धनाय च प्रतिबद्धो वर्तते। नैरन्तर्येण शिक्षायै पुस्तकालय इति समाघोषेण समायोजितस्य सप्तदश पुस्तकालय दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री भट्टराई पुस्तकालयानाम् विकासाय आवश्यक विधिनीति नियमानाम् निर्माणस्य चरणे मन्त्रालयोस्तीति असूचयत्। पुस्तकालयानाम् विकास नीति नियमाधिनियमाः आवश्यकाः सन्ति इति चर्चयन्ती मन्त्री भट्टराई शिक्षा मन्त्रालयेन चतुष्षष्ट्यधिक द्विसहस्रतम विक्रम वर्षीयाम् पुस्तक नीतिम् परिमार्जयितुम् प्रारम्भिकः प्रस्तावः निर्मितोऽस्तीति च असूचयत्। सम्प्रति पुस्तकालयः पुस्तकेषु एव सीमितीकृताः न सन्ति इति स्मारयन्ती मन्त्री भट्टराई विद्युतीय पुस्तकालयानाम् विकासम् विधाय विश्वस्तरीय पुस्तकाध्ययनस्य वातावरणम् निर्मातुम् आवश्यकता अस्ति इति प्रत्यपादयत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी कृषकाणां पक्षे दायित्ववाहितया कार्यं विधास्यते इति प्रतिबद्धतां व्यनक्ति। मुक्तिनाथ कृषि संस्थानस्य षष्ठस्य वार्षिकोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री अधिकारी ग्रामं प्रत्यावर्त्य कृषि कर्मणि विहितं अभिप्रेरणं प्रति संस्थानस्य प्रशंसाम् अकरोत्। कृषि क्षेत्रे वार्षिकम् आयव्ययकं वर्धयितुम् आवश्यकता स्थिति चर्चयन् मन्त्री अधिकारी कृषेः व्यावसायिकीकरणाय प्रविधेः पूर्वाधारस्य जनशक्तेः आपणीकरणस्य च कार्यं मुख्यं भवतीत्यतः क्षेत्रेऽस्मिन् व्यवस्थित रणनीतिक निवेशस्य आवश्यकतां दर्शितवान्। कृषौ सर्वकारेण उद्घुष्टस्य निवेश दशकस्य सफलीकरणस्य दायित्वं नैजक्षेत्रस्यापि अस्तीति चर्चयन् मन्त्री अधिकारी एतदर्थं मन्त्रालयेन गृहकार्यं विधीयमानमस्तीति असूचयत्। नेपाल तैल निगमेन पेट्रोलियम पदार्थानां मूल्यं न्यूनीकृतं वर्तते। निगम संचालक समिते ह्यस्तनोपवेशेन अद्यतः क्रियान्वयनत्वेन पेट्रोल तैलस्य प्रतिलिटरमितं रूप्यकद्वयेन डीजल मृत्तिका तैलयोः प्रतिलिटरमितं एकेन रूप्यकेण च मूल्यं न्यूनीकृतं वर्तते। तथैव आन्तरपक्षस्य विमानेन्धनस्य प्रतिलिटरमितं पञ्चभिः रूप्यकैः अन्तर्राष्ट्रियपक्षस्य विमानेन्धनस्य प्रति किलोलिटरमितं सप्तत्रिंशता अमेरिका देशीय डलर मुद्राभिश्च मूल्यं न्यूनीकृतमस्तीति निगमेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य पदाधिकारिणां पूर्व पदाधिकारिणां च उपवेशे महासमितौ प्रस्तुतं प्रस्तावं सर्वसम्मत्या पारितीकर्तुं सहमतिः धृतास्ति। कांग्रेस सभापतेः शेरबहादुर देउवाभिदस्य बुढानीलकण्ठवर्तिनी निवासे ह्य उपविष्टे उपवेशे महासमितौ प्रस्तुतान् सर्वान् प्रस्तावान् अद्य उपविश्यमाने केन्द्रीय समितेः उपवेशे प्रस्तुत्य सर्वसम्मतरूपेण पारितीकर्तुं सहमतिः धृतास्तीति दलस्य मुख्य सचिव कृष्णप्रसाद पौडेलः अज्ञापयत्। कांग्रेस केन्द्रीय समितेः उपवेश अद्य दिवा द्विवादने सानेपावर्तिनी दल कार्यालये वसतीति असौ असूचयत। केन्द्रीय समितौ प्रस्तुतेभ्य प्रस्तावेभ्य अन्तिमं रूपं प्रदातुम् अद्य दिवा एकवादने पुनः पदाधिकारिणां पूर्व पदाधिकारिणां च उपवेशः वसतीति ज्ञापितं वर्तते। गत माघ मासे ललितपुरे सम्पन्ने न महासमितेः उपवेशेन उपवेशे प्रस्तुतानां प्रस्तावानां सपरिमार्जनं पारितीकरणस्य दायित्वं दलस्य केन्द्रीय समित्यै प्रदत्तम् आसीत्। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत कथयति समानुपातिक समावेशी व्यवस्थायाः मर्मणः संरक्षणं विधाय संविधानं संशोधनीयम्। ह्य मकवानपुरस्य हेटौडा नगरे आयोजिते कार्यक्रमे प्रवक्ता महत महिला मधेसी आदिवासी जनजाति दलितवर्गाणाम् अल्पसंख्यक समुदायानां च समावेशिनः गतिविधित्वस्य प्रतिनिधित्वस्य प्रत्यक्ष निर्वाचन विधितः निश्चयनं विधाय संविधानं संशोधयितुं शक्यते इति धारणां व्यक्तवान्। समाह्वयं स्वीकृत्य एव नेकपा एमाले दलेन सह कांग्रेस दलेन सर्वकारस्य संघटनाय घटबन्धनं निर्मितमस्तीति प्रवक्ता डाक्टर महत समस्पष्टयत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा कथयति समुदायैः क्रियमाणेषु सामाजिक कार्येषु सर्वकारस्य सहकार्यस्य सहयोगस्य च आवश्यकता भवति। गोदावरी सामुदायिक पुस्तकालय स्रोत केन्द्रेण सप्तदश पुस्तकालय दिवसस्य 69वीं शततम्याः मोती जयन्त्याश्च अवसरे ह्य आयोजिते कार्यक्रमे महामन्त्री थापा सामाजिक कार्येषु युवसन्ततिं सहैव नीत्वा अग्रे वर्धनीयम् इति अवोचत। महामन्त्री थापा विकासस्य पश्चात्तन चरणे विद्यमानैः देशैः विकास कार्य समुदायानाम् अयोजनस्य यावत् विकासस्य सम्भावना नास्तीति चर्चयन् तदर्थं पुस्तकालयः महत्वपूर्णाः सन्तीति धारणां व्यक्तवान्। भूस्खलनस्य कारणेन चतुर्विंश दिवसै कर्णाली राजमार्गस्य अवरोधनात् जुम्ला जनपदस्य कोटिशो रूप्यकाणां सेवफलं नाशावस्थायां वर्तन्ते इति समाचाराः।